एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। संघीय संसदः द्वयोरेव सदनयोः सर्वकारस्य आगामिनः आर्थिक वर्षस्य नीति कार्यक्रमान् आधृत्य विमर्शनम् प्रारब्धम् वर्तते। प्रतिनिधि सभायाः गतदिवसीयोपवेशे प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः राष्ट्रपतिना रामचन्द्र पौडेलेन गत शुक्रवासरे संघीय संसदः द्वयोरेव सदनयोः संयुक्तोपवेशे विहिते सम्बोधने उल्लिखितान् आगामिनः आर्थिक वर्षस्य सर्वकारस्य वार्षिक नीति कार्यक्रमान् आधृत्य विमर्शनम् प्रारभणीयम् इति विषयकम् प्रस्तावम् प्रस्तोत। सर्वकारस्य नीति कार्यक्रमान् आधृत्य विहिते विमर्शने प्रमुख प्रतिपक्षिणो नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओली नीति कार्यक्रमान् प्रत्यावर्त्य पुनर्लेखनम् कर्तुम् सर्वकारम् अन्वरुणत्। अध्यक्ष ओली अवोचत् अर्थतन्त्रस्य गतिशीलतायाः वर्धनत्वेन मृत्युपार्जन सर्जनत्वेन औद्योगिकीकरणस्य सर्जनत्वेन शिक्षा स्वास्थ्य प्रवृत्ति सामाजिक सेवाया क्षेत्रे सर्वसाधारण जनतायाः उपागमनत्वेन राष्ट्रिय सामर्थ्य वर्धनोत्साहेन च नीति कार्यक्रमाः आनेतव्याः। सर्वकारेण संघीय संसदि प्रस्तुतान् आगामिनः आर्थिक वर्षस्य नीति कार्यक्रमान् आधृत्य विहिते विमर्शने सहभागिनः संशोधनकर्तारः अन्ये सांसदाः नीति कार्यक्रमेषु बहवो विषयाः उल्लिखिताः सन्तीति भाषमाणाः एतेषाम् क्रियान्वयनाय प्रतिशतम् षष्ट्या कार्यसम्पादनत्वेन आयव्ययकम् आनेतुम् अन्वरुन्धन्। सांसदाः नीति कार्यक्रमाणाम् इतोऽपि सुदृढीकरणम् पूर्णता प्रदानम् च आवश्यकम् अस्तीति बलम् ददतः अवदन् सीमान्तीकृत क्षेत्रम् समुदायम् च प्राथमिकतायम् संस्थाप्य अग्रे वर्धितव्यम्। अर्थतन्त्रे सृष्टानाम् समस्यानाम् समाधानाय महत्वाकांक्षिणाम् नवीनानाम् च कार्यक्रमाणाम् आनयनस्य अपेक्षया रणनीतिक महत्वस्य जनजीविकया सह सम्पृक्तेषु कार्यक्रमेषु च बलम् देयमिति अवोचन्। प्रतिनिधिसभायां सर्वकारस्य आगामिनः आर्थिक वर्षस्य नीति कार्यक्रमाणां विभिन्नेषु सूत्रेषु विंशति संशोधन प्रस्तावाः प्रस्तुताः सन्ति। एवमेव राष्ट्रिय सभायां प्रधानमन्त्रिणः पुष्पकमल दाहाल प्रचण्डस्य पक्षतः संचार सूचना प्रविधि मन्त्रिणा रेखा शर्मणा सर्वकारस्य नीति कार्यक्रम विषयकं विमर्शनं प्रारभणीयम् इति निगद्य प्रस्तावः प्रस्तुतः तदनु विमर्शनं प्रारभत। विमर्शने सहभागिनः सांसदाः अभासन्त वैदेशिक मृत्युपार्जनाय गतानाम् जनानाम् संख्यायाः न्यूनीकरणस्य देशे एव मृत्युपार्जनस्य सुनिश्चयनस्य संघीयतायाः मर्म आत्मसात्कृत्य प्रदेशानाम् स्थानीय स्तराणाम् च स्वायत्तीकरणस्य वित्तीय संस्थानाम् सहकारी संस्थानाम् च धराशायिन्याः अवस्थायाः सुधारस्य च विषयाः नीति कार्यक्रमेषु समावेशनीयाः। एवमेव शिक्षा क्षेत्रे पाठ्यक्रम सुधारस्य आवश्यकतायाः समय सान्दर्भिक व्यावहारिक शिक्षायां बल प्रदानस्य निजगणान्तर्राष्ट्रिय विमानस्थलस्य निर्माण कार्यस्य सम्पादनत्वेन क्रियान्वयनस्य च विषयेष्वपि सांसदाः बलं प्रादुः। सांसदानां नीति कार्यक्रमान् आधृत्य धारणायाः उपस्थापन क्रमः आगामिषु उपवेशेषु अपि सततं चलिष्यति। राष्ट्रियसभायाः अपरोपवेशः अद्य दिवा एकवादने वसति। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड कथयति नेपाली महिलानाम् योगदानेन परिवर्तनम् सम्भूतमस्ति। अखिल नेपाल महिला संघ क्रान्तिकारी संगठनस्य केन्द्रीय समित्या दलस्य कोटेश्वर वर्तिनी केन्द्रीय कार्यालये ह्य आयोजितम् राष्ट्रिय परिषद प्रथमम् उपवेशम् विधान सम्मेलनम् च सम्बोधयन् प्रधानमन्त्री प्रचण्ड संघीय लोकतान्त्रिक गणतन्त्रम् संस्थागतम् विधाय जनताम् अतिरिक्ताधिकार सम्पन्नाम् विधातुम् क्रान्तिकारी महिलाभिः एकताबद्धावीर भाव्यमिति उदैरयत। प्रधानमन्त्री प्रचण्डः सम्प्रति गणतन्त्रस्य विरूद्धे षड्यन्त्रम् जायमानम् अस्तीत्यतः प्रतिगामि शक्तिर्विरूद्धे परिवर्तनेच्छुकैः जनैः एकबद्धैर्भाव्यमिति बलम् प्रादात्। तदवसरे नेकपा माओवादी केन्द्रस्य उपमहासचिवः जनार्दन शर्मा अभाषत दलस्य जनवर्गीय संघटनानि जनता केन्द्रितानि विधातव्यानि एतदनुसारेणैव च परिचालनीयानि। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड गदति संसद अभ्यन्तरे बहिश्च समन्वय विधाय संक्रमणकालिक न्यायेन सम्बद्धम् विधेयकम् शीघ्रम् निष्कर्षम् प्रापयिष्यते। विलुप्त योद्ध परिवार समाज नेपालेन चतुर्दश राष्ट्रिय विलुप्त योद्ध स्मृति दिवसस्य अवसरे ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे नेकपा माओवादी केन्द्रस्य अध्यक्षश्च प्रधानमन्त्री प्रचण्ड संसदि विचाराधीनम् सत्यनिरूपण मेला योगेन विलुप्त व्यक्त्यनुसन्धानायोगेन च सम्बद्धम् विधेयकम् आश्रित्य प्रकरणगत विमर्शनम् विधाय विलुप्त हुतात्म योद्धजनानां परिवारेभ्य सम्मान सौविध्य प्रदानत्वेन विधेयकम् पारितीकरिष्यते इति विश्वासम् व्यक्तवान्। असौ विधेयकम् शीघ्रम् पारितीकृत्य वर्ष द्वयस्य अभ्यन्तरे संक्रमणकालिकम् न्यायम् निष्कर्षम् प्रापणत्वेन कार्यम् अग्रे वर्धाप्यते इति च असूचयत्। प्रधानमन्त्री प्रचण्डः अगदत् संक्रमणकालिक प्रक्रियायाः निष्कर्षे प्रापणस्य विषये सत्ता गठबन्धने अनुकूलं विमर्शनं सञ्चलदस्ति। नेपाली कांग्रेस नेकपा एमाले प्रवृत्तिनां दलानां सहयोगस्य प्रतिबद्धता च प्राप्ता वर्तते। कार्यक्रमे नेपाल कम्युनिष्ट दलस्य महासचिवः नेत्रविक्रमचन्द विप्लवः लोकतन्त्रं सुदृढं सद् आत्मनां प्रतिस्पर्धायै तत्परता स्थिति स्पष्टीकृतवान्। नेकपा एमाले दलस्य उपमहासचिव प्रदीप कुमार ग्यवाली विलुप्तानाम् जनानाम् पीड़ा चिराय न रक्षणीयेति भाषमाणः संक्रमणकालिका न्यायम् शीघ्रम् निष्कर्षम् प्रापयितुम् स्वस्य दलम् प्रतिपक्षे स्थितम् सदपि विना पूर्वाग्रहेण सहयोगी भविष्यति इति समस्पष्टयत्। नेपाली कांग्रेस दलस्य प्रमुख सचेतक पदीयो रमेश लेखकः विस्तृत शान्ति संविधायः अंगस्य रूपेण संक्रमणकालिका न्यायम् निष्कर्षम् प्रापयितुम् प्रधानमन्त्रिणः प्रचण्डस्य नेतृत्वस्य सर्वकाराय अवसरः प्राप्तोस्तीति उदैरयत्। उप प्रधान गृहमन्त्री नारायण काजी श्रेष्ठ वदति सर्वकारः देशस्य नवीन पद्धत्या अग्रे वर्धापनार्थं भ्रष्टाचारस्य अनुचितार्थिक लाभस्य च भञ्जनाभियाने सक्रियो वर्तते। प्रेस सेन्टर नेपालस्य गण्डकी प्रदेश समितेः गोर्खा जनपद समन्वय समितेश्च साधारण सभां पूर्वेद्युः गोर्खा जनपदे सम्बोधयन् उप प्रधानमन्त्री श्रेष्ठ अवासत भूटान देशीय शरणार्थी प्रकरणे स्वतन्त्रतया निष्पक्ष रूपेण च तथ्य प्रमाणयोः आधारेण अनुसन्धानस्य वर्धनस्य कारणात् दोषिणः केऽपि उन्मुक्तिम् न प्राप्नुवन्ति। उप प्रधानमन्त्री श्रेष्ठः अकथयत् नेपाली जनतायै नविनाशा विश्वासयोः दापनस्य दिशि सर्वकार अग्रे वर्धमानो वर्तते। एतस्यैव परिणामस्वरूपेण सर्वकारः कठोरेण भ्रष्टाचारस्य विरूद्धे दृढतया स्थितोऽस्ति। बागमती प्रदेशस्य प्रदेश प्रमुख यादव चन्द्र शर्मा ह्यो नवनियुक्तान् मन्त्रिणः शपथम् अग्राहयत। हेटौडा स्थाने ह्य आयोजिते समारोहे प्रदेश प्रमुखेण शर्मणा मुख्यमन्त्रिणः शालिग्राम जम कटेल इत्यस्य परामर्शेन नवनियुक्ताः षड् मन्त्रिणः शपथेन प्रतिज्ञापिताः सन्ति। तत्र नेकपा एकीकृत समाजवादी दलस्य डाक्टर राजेन्द्र मान श्रेष्ठेन कृषि पशुपक्षिणः लक्ष्मण लम्सालेन श्रम वृत्ति यातायात मन्त्रिणः एवमेव नेपाली कांग्रेस दलस्य पुकार महर्जन इत्यनेन पर्यटनोद्योग सहकारी मन्त्रिणः मसिना खड्का इत्यनया वन वातावरण मन्त्रिणः उत्तम जोशिना स्वास्थ्य मन्त्रिणश्च शपथ गृहीतो वर्तते। रामकृष्ण चित्रकार इत्यनेन बिना विभागीय मन्त्रिणो रूपेण शपथ गृहीतोऽस्ति। सत्तारूढ नेकपा माओवादी केन्द्रेण तात्कालिक माओवादी योद्ध शिविर व्यवस्थापन कार्यालयस्य माध्यमेन माओवादी दलीय सेनाया भरणस्य अन्य व्यवस्थापनस्य च वित्तम् प्रदत्तम् अस्तित्यतः तत्र कार्य कथम् विधापि आर्थिकी अनियमितता सम्भूता नास्तीति उक्तम् वर्तते। दलस्य प्रवक्तुः कृष्णबहादुर महरा इत्यस्य अनुसारेण मालेखा परीक्षकेण 79,200 विक्रम वर्षस्य ज्येष्ठ मासस्य 29 दिवसे शिविरस्य व्यय विवरणस्य समर्थनम् नियमनम् क्षमादानम् च विधाय सम्परीक्षणस्य ज्ञापनपत्रम् शिविर व्यवस्थापन केन्द्रीय समन्वय कर्तुः सिंहप्रसाद वर्तिनी कार्यालये प्रेषितम् आसीत् इति समाचाराः।